श्रीदेव्युवाच देवदेव महादेव कालग्नमहेश्वरः करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तरशतल्लक्ष्म्या श्रोतुमिच्छामि तत्पदः ईश्वर उवाच देवि साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरं पुण्यम् सर्वपापप्रणाशनम् सर्वदारिद्र्यशमनम् श्रवणाद्भुक्तिमुक्तिदम् राजवश्यकरं दिव्यम् गुह्याद्गुह्यतमं परं दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्वतम् पद्मादीनां वरां नाम्नां निधीनां नित्यदायकम् समस्तदेवसंसेव्यं कल्पाद्यष्टसिद्धिदं किमत्र पहिमुक्तेन देवी प्रत्यक्षदायकम् तव प्रीत्याध वक्ष्यामि समाहितमनाश्रुणो अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता किं बीजमतनित्युक्ता शक्तिस्तु भुवनेश्वरी अङ्गन्यासः करण्यासः शमित्यादिप्रकीर्तितः ध्यानम् पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यां अभयप्रदां मणिगणैर्नानाविधैर्भूषितां भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां पार्श्वे पङ्कजशङ्खपद्मिभिर्युक्तां सदा शक्तिभिः सरसिजनयने सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोमे त्रिभुवनभूतिकरि प्रसीदमह्यम् प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिसुरभिं नमामि परमात्मिकां वाचां पद्मालयां पद्मां शुचिं स्वाहा स्वतां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् अदितिं च दितिं दीप्तां वसुधां वसुधारिणी नमामि कमलाकान्तां कामाक्षी कमलसम्भवाम् अनुग्रहपदां बुद्धिम् अनघां हरिवल्लभाम् अशोकाम् अमृतां दीप्तां लोकशोकविनाशिनी नमामि धर्मनिलयां करुणां लोकमातरां पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् चत् चतुर्भुजां चन्द्ररूपां इन्दिरामिन्दु शीतलाम् आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियं भास्करीं बिल्वनिलयां परारोहां यशस्विनीं वसुन्दरामुदाराङ्गां हरिणीं हेममालिनीं धनधान्यकरीं सिद्धिं स्वर्णसौम्यां शुभप्रदां नृपवेशगतानन्दां वरलक्ष्मीं वसुप्रदां शुभां हिरण्यप्राकारां समुद्रतनयां जयां नमामि मङ्गलां देवीं विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीं नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम्। लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं काशीभूतसमस्तदेववनितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् मातर्नमामि कमले कमलायताक्षी श्रीविष्णुहृत्कमलवासिनि विश्वमातः क्षीरोदजे कमलकोमलगर्भगौरी लक्ष्मीं प्रसीद सततं नमता शरण्ये। त्रिकालं यः पठेद् विद्वान् षण्मासां विजितेन्द्रियः दारिद्र्यध्वंसिनं कृत्वा सर्वमाप्नोति यत्नतः देवी नाम सहस्रेषु पुण्यमष्टोत्तरं शतं येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः। रघुवारे सदन्दी मां पठेद्भक्तरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेरैव भूतले दारिद्र्यमूर्चनं नाम स्तोत्रम् अम्बापरं शतम् येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः। भुक्त्वा ते विपुलानुभोगान् अस्य सायुज्यमाप्नुयात् प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये। घटं स्तुं चिन्तयै देवी सर्वाभरणभूषिता